ववतो सहनौ भुनक्तो सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ब्रह्मविदा प्रोतिपदम् तदेशाभ्युक्ता सत्यम् ज्ञानमनन्तम् ब्रह्म यो वेद निहितम् गुहाजाम् परदेव्यो मन् सोऽष्टुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आकाशाद्वायुः वाजोरग्निः अग्नेरापः अभ्यः पृथिवी पृथिव्या ओषधजः ओषधीभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषोऽन्नदसमजः तस्येदभेव शिरः अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदम् पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति अन्नाद्वै प्रजाः प्रजायन्ते याष्टाश्च पृथिवीगश्रिताः अथो अन्ने नैव जीवन्ति अथैनदपि जन्त्यन्ततः अन्नगुम्भिभूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैतेन्द्रमाप्नुवन्ति येन्नम् ब्रह्मोपासते अन्नगुम्भिभूतानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते जातान्येन वर्धन्ते अद्यतेऽत्ति च भूतानि तस्मादन्नन्तदुच्यत इति तस्माद्वा एतस्मादन्नरसमजात् अन्योन्तर आत्मा प्राणमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वजम् पुरुषविधः तस्य प्राण एव शिरः व्यानो दक्षिणः पक्षः अपान उत्तरः पक्षः आकाश आत्मा पृथिवी पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति प्राणम् देव अनुप्राणन्ति मनुष्याः पशवश्च ते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यते सर्वमेव त आयुर्यन्ते ये प्राणम् ब्रह्मोपासते प्राणो हि भूतानामायुः तस्मात् सर्वायुषमुच्यत इति तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मात् प्राणमजात् अन्योन्तर आत्मा मनोमजः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य यजुरेव शिरः ऋद्दक्षिणः पक्षः सामोत्तरः पक्षः आदेश आत्मा अथर्वाङ्गिरसः पुच्छं प्रतिष्ठा तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दम् ब्रह्मणो विद्वान् न बिभेति कदाचनेति तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्मान्मनोमयात् अन्योन्तर आत्मा विज्ञानमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य श्रद्धैव शिरः ऋतम् दक्षिणः पक्षः सत्यमुत्तरः पक्षः योग आत्मा महः पुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति विज्ञानम् यज्ञम् तनुते कर्माणि तनुतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्म ज्येष्ठमुपासते विज्ञानम् ब्रह्म चेद्भेद तस्माच्चेन्न प्रपाद्यति शरीरे पाप्मनो हित्वा सर्वान् कामान् समश्नुत इति तस्यैष एव शरीर आत्मा यः पूर्वस्य तस्माद्वा एतस्माद्विज्ञानमजात् अन्योन्तर आत्मानन्दमयः तेनैष पूर्णः स वा एष पुरुषविध एव तस्य पुरुषविधताम् अन्वयम् पुरुषविधः तस्य प्रियमेव शिरः मोदो दक्षिणः पक्षः प्रमोद उत्तरः पक्षः आनन्द आत्मा ब्रह्मपुच्छम् प्रतिष्ठा तदप्येष श्लोको भवति असन्नेव स भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेनन्ततो विदुरिति तस्यैष एव शरीर आत्मा यः पूर्वस्य अथातो नु प्रश्न्याः उत विद्वानमुल्लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमुल्लोकम् प्रेत्य कश्चित् समश्नुत ओ शोकामयत बहुस्याम् प्रजयेति सतपोतप्यत सतपस्तप्त्वा इदम् सर्वमसृजत यदिदम् किञ्च तच्छृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्च भवत् निरुक्तम् च निरुक्तम् च निलजनम् च निलजनम् च विज्ञानम् च विज्ञानम् च सत्यम् च नृतम् च सत्यमभवत् यदिदम् किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति ग्रह्येवायल्लब्ध्वानन्दे भवति को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दजाते यदा ह्येवैष एतस्मिन्न दृश्येनात्म्ये निरुक्ते निलजने भजम् प्रतिष्ठाम् विन्दते अथ सो भजम् गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरम् कुरुते अथ तस्य भजम् भवति तत्त्वेव भजम् विदुषो मन्मानस्य तदप्येष श्लोको भवति भीषास्माद्वातः पवते भीषो देति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवा स्यात् साधुजुवाद्भाजकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येजम् पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेजे शतम् मानुष आनन्दाः स एको मनुष्यगन्धर्वानामानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् मनुष्यगन्धर्वानामानन्दाः स एको देवगन्धर्वानामानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् देवगन्धर्वानामानन्दाः स एकः पितृणाञ्चिरलोकलोकानामानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् पितृणाञ्चिरलोकलोकानामानन्दाः स एक आजानजानान्देवानामानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतमाजानजानान्देवानामानन्दाः स एकः कर्म देवानान्देवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य च कामः तस्य तेजे शतम् कर्म देवानाम् देवानामानन्दाः स एको देवानामानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् देवानामानन्दाः स एक इन्द्रस्यानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतमिन्द्रस्यानन्दाः त एको बृहस्पतेरानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् बृहस्पतेरानन्दाः स एकः प्रजापतेरानन्दः श्रोत्रियस्य च कामः तस्य तेजे शतम् प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः श्रोत्रियस्य च कामः तस्य स यश्चाजम् पुरुषे यश्चासावादित्ये स एकः स य एवंवित् अस्माल्लोकात् प्रेत्य एतमन्नमजमात्मानमुपसङ्क्रामति एतम् प्राणमजमात्मानमुपसङ्क्रामति एतम् मनोमजमात्मानमुपसङ्क्रामति ఏతం విజ్ఞానమయమాత్మానముపసంక్రామతి ఏతమానందమయమాత్మానముపసంక్రామతి తదప్యేష శ్లోకో భవతి యతో వాచో నివర్తంతే అప్రాప్యమనసా సహ ఆనందం బ్రహ్మణో విద్వాన్ న బిభేతి కుతశ్చ నేతి ఏతగుం హవావన తపతి కిమహగుం సాధునా కరవం కిమహం పాపమకరవమితి సయ ఏవం విద్వానేతే ఆత్మానజ్ఞ స్పృణుతే ఉభేహ్యే వైష ఏతే ఆత్మానజ్ఞ స్పృణుతే య ఏవం వేద ఇత్యుపనిషత్ సహనావవతు సహనౌ భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై ఓం శాంతి శాంతి శాంతిః ఓం సహనావవతు సహనౌ భునక్తు